एष रेडियो नेपालः सम्प्रति समाचाराः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः वदति प्राशासनिक क्षेत्रे दृष्टानाम् समस्यानाम् समाधानाय प्रधानमन्त्रिणः एव नेतृत्वे उच्चस्तरीय प्रशासन सुधारायोगः संघटयिष्यते। प्रधानमन्त्री मन्त्री परिषदः कार्यालयस्य अन्तर्गतानाम् कार्यालयानाम् द्वितीयाम् चातुर्मासिक समीक्षाम् मन्त्रालय स्तरीय विकास समस्या समाधान समितेः उपवेशम् च ह्यः सम्बोधयन् प्रधानमन्त्री प्रचण्डः कर्मचारी प्रशासने आवश्यकतायाः अधिक कर्मचारिणाम् प्रभावः न्यूनीकरिष्यते इति अज्ञापयत्। गतदिने एव प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः नेपालोद्योग परिसंघेन चाइना काउन्सिल फर द प्रमोशन अफ इन्टरनेशनल ट्रेड इत्याभिधेयया चीनदेशी अन्तर्राष्ट्रिय व्यापार प्रवर्धन परिषदाच आयोजितम् एतत्ख्रीष्टवर्षीयम् नेपाल चाइना बिजनेस फोरम नामकम् नेपाल चीन व्यापार मञ्चम् सम्बोधयन् अवसत नेपालः निवेश मैत्री राष्ट्रस्य रूपेण स्थापितो वर्तते। असौ अतर्कयत् जनशक्तेः साजोपलब्धेः परिमार्जित श्रमविधेः विहित सुधारस्य औद्योगिक सम्बन्धस्य च कारणैः नेपाले निवेश मैत्री वातावरणम् निर्मीयमाणम् वर्तते। राष्ट्रे पूर्वाधाराणाम् विकासाय विपुल निवेशनस्य नवीन प्रविधेश्च आवश्यकता स्थिति भाषमाणः प्रधानमन्त्री प्रचण्डः चीन सर्वकारेण अत्र सहयोगो विधास्यते इति विश्वासम् अभिव्यनक। प्रधानमन्त्री प्रचण्डः निवेशनाय जलविद्युद्योगिकोत्पादन पूर्वाधार विकास पर्यटन कृषि खनिज पदार्थ खनि प्रवृत्ति क्षेत्राणि सन्तीति अज्ञापयत्। निर्वाचन आयोगेन परश्व चैत्रस्य तृतीय दिवसे सम्पत्स्यमानाय उपराष्ट्रपतेः पदस्य निर्वाचनाय गतरात्रौ द्वादशवादनतः प्रचार प्रसारयोः निषेधनस्य अवधिः क्रियान्वितो स्थिति ज्ञापितम् वर्तते। मतदान दिवसात् अष्टचत्वारिंशतो घण्टाभ्यः पूर्वतः एव मतदान केन्द्रस्य अपिधानम् यावत् निषेधनस्य अवधिः क्रियान्वितो भवति। आचार संहितायाः अनुसारेण निर्वाचनम् स्वच्छे स्वतन्त्रे निष्पक्षे विश्वसनीये पारदर्शिनि भयमुक्ते च वातावरणे सम्पादयितुम् निषेधनस्य अवधि क्रियान्वितो भवतीति आयोगस्य प्रवक्त्रा शालिग्राम शर्मा पौडेलेन ह्य प्रकाशितायम् विज्ञप्तौ उल्लिखितम् वर्तते। प्रचार प्रसारयोः निषेधनावधौ निर्वाचन प्रचार प्रसाराभ्याम् सह कथम् विधानि अपि विमर्शनान्तर क्रिया सभा सम्मेलन कार्यशाला गोष्ठी प्रवृत्ति कार्याणि निषिद्धानि सन्ति। राष्ट्रिय सभायाः अन्तर्गतायाम् राष्ट्रिय सम्बद्धता समन्वय समितौ वित्तीय संघीयतायाः विषयः विमृष्टो वर्तते। सिंह प्रासादवर्तिनी संसद सचिवालये ह्य उपविष्टे समितेः उपवेशे सांसदाः आगामिनः आर्थिक वर्षस्य आय व्यय विवरणस्य प्राथमिकतायाः विषयम् विस्तरेण विमृष्टुम् बलम् प्रादुः। उपवेशे समितेः सभापतिः दिलकुमारी रावल पार्वती राष्ट्रिय योजनायोगस्य उपाध्यक्षेण राष्ट्रिय प्राकृतिक स्रोतो वित्तायोगस्य पदाधिकारिभिः अर्थमन्त्रिणा च सह अतिरिक्तम् विमृश्य आवश्यकम् निर्देशनम् प्रदास्यते इति असूचयत्। संचार सूचना प्रविधि मन्त्री रेखा शर्मा कथयति सर्वकारः सूचना प्रविधे क्षेत्रम् व्यवस्थितम् विधातुम् प्रयासरतो वर्तते। राजधान्यम् ह्यः प्रारब्धम् एशिया प्यासिफिक एडभान्स्ड नेटवर्क संस्थायाः पञ्चपञ्चाशत्तमम् अन्तर्राष्ट्रिय सम्मेलनम् सम्बोधयन्ती मन्त्री शर्मा सर्वकारेण स्वस्यैव भूपग्रहस्य सफ्टवेयर सुसांख्यान्तर प्रणाल्याश्च निर्माणस्य प्रयास प्रारब्धोस्तीति ज्ञापयन्ती अगदत्। एतदर्थम् उपलब्धानाम् स्रोत साधनानाम् उच्चतम प्रयोगः अतिरिक्तम् निवेशनम् च प्राथमिकतायाम् समाविष्टे स्तः। मन्त्री शर्मा अकथयत् सर्वेषु नागरिकेषु आधुनिक प्रविधेः विस्तारम् सुनिश्चेतुम् अमुम् साधारण जनानाम् जीवनस्तरस्य सुधाराय प्रयुक्तुम् च शक्यते इत्यत्र सर्वकारः विश्वस्तो वर्तते। मन्त्री शर्मा अगदत् प्रविधिम् उच्चतमरूपेण प्रयुज्य नवीनावसरः सृज्यते राष्ट्रस्य आर्थिक समृद्धिश्च अवाप्यते। व्यवस्थापिका संघस्य षड्चत्वारिंशद् अधिक शततम्याम् महासभायाम् भागम् ग्रहीतुम् बहराइन देशम् प्राप्तेन सभामुखेन देवराज घिमिरे विदेन नेपाली श्रमिकाणाम् अवस्थायाः विषयः ज्ञातोऽस्ति। मनामा वर्तिनी नेपाली दूतावासे ह्यः सभामुखा घिमिरे राजदूतात् तीर्थराज पाण्डे वाग्ले विदाद दूतावासाधिकारीभ्यः स नेपाली समीकरणम् अवस्थायाः विषयम् अध्यगच्छति ज्ञापितम् वर्तते। तदवसरे सभामुखः गिमिरे दूतावासस्य अधिकारिभिः बहराइन देशे नेपाली श्रमिकैः न्यूनतम वेतनेन कार्यकरणस्य पारपत्रस्य नवीकरणस्य प्रवेशाज्ञा प्रक्रियायाश्च विषयैः ज्ञापितः आसीत्। राष्ट्रपतये रामचन्द्र पौडेलाय जापान देशस्य प्रधानमन्त्रिणा किशिदा फुनियो इत्यनेन वर्धापनम् ज्ञापितम् वर्तते। प्रधानमन्त्रिणा किशिदा इत्यनेन ह्य औपचारिक पत्रस्य माध्यमेन राष्ट्रपतये पौडेलाय वर्धापनम् ज्ञापितमिति काष्ठमण्डप स्थितेन जापान देशीय राजदूतावासेन ज्ञापितम् वर्तते। राष्ट्रपतेः पौडेलस्य नेतृत्वे नेपालस्य सामाजिक आर्थिक विकासाय द्विपक्षीय सम्बन्धम् मित्रताञ्च प्रवर्धयितुम् अतिरिक्तम् सहकार्यम् कर्तुम् च जापान सर्वकारः तत्परोस्तीति प्रधानमन्त्रिणा किशिदा इत्यनेन पत्रे उल्लिखितम् वर्तते। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य सम्पादन समितेः उपवेशा अद्य उपविशति। ललितपुरस्य सानेपावर्तिनी दलस्य केन्द्रीय कार्यालय अद्य पूर्वान्नस्य एकादश वादने उपविश्यमाने उपवेशे। केन्द्रीय कार्य सम्पादन समितेः पदाधिकारिणः सदस्याश्च उपस्थित्यै अनुरूद्धाः सन्तीति दल कार्यालयस्य मुख्य सचिवः कृष्ण प्रसाद पौडेलः ज्ञापयति। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली कथयति मानवाधिकारः पक्ष विपक्षयोः विषयाः न सम्पादनीयाः। मानवाधिकार सामाजिक न्याय मञ्च नेपालेन ह्य काष्ठमण्डपे आयोजिते मानवाधिकाराणाम् रक्षकाणाम् सामाजिकाभियन्त्रीणाञ्च तृतीय राष्ट्रिय सम्मेलने एमाले दलाध्यक्ष ओली लब्ध जन्मबुद्धस्य देशस्य जनैः केनचित् आवेशेन उत्तेजनया च कार्यम् न कर्तव्यमिति बलम् प्रादात्। कार्यक्रमे एमाले दलस्य महासचिव शंकर पोखरेल अवोचत सम्प्रति नेपाली राजनीतौ संकटस्य दर्शनम् प्रारब्धम् वर्तते। सम्मेलने मानवाधिकार एलायन्स संस्थायाः अध्यक्ष मीनबहादुर साई पश्चात्तन समये मानवाधिकाराणाम् उल्लंघनस्य घटनाः वर्धमानाः सन्तीति धारणाम् व्यक्तवान्। राष्ट्रिय स्वतन्त्र दलेन स्वस्य नेतारः कार्यकर्तारश्च जनतायाः दैनिक जीविकया सह संयोजनत्वेन कार्याणि विधातुम् निर्दिष्टाः सन्ति। गत फाल्गुनस्य सप्तविंश दिवसत चितवन जनपदस्य सौरास्थाने सञ्चल्यमानम् दलस्य आन्तर प्रशिक्षण कार्यक्रमम् ह्य सम्बोधयन् दलस्य सभापतिः रवि लामिछाने जनतायाः दैनिक जीवनेन सह संयोजनत्वेन कार्याणि विधातुम् सर्वेषाम् स्तराणाम् नेतृत्वम् निरदिशत्। वञ्चन प्रकरणे निगृहितानाम् पृथ्वीबहादुर सायेन एतदीयेन अनुजेन विजय विक्रमेण च सहितानाम् सप्तानाम् जनानाम् मध्ये षड् जनाः अभियोग प्रतिरक्षणाय कारागारम् प्रेषिताः सन्ति। प्रहरिणः केन्द्रीय अनुसन्धान निकायेन इमे काष्ठमण्डप जनपद न्यायालयस्य सोमवासरस्य आदेशेन ह्य कारावासम् प्रेषिताः सन्तीति ज्ञापितम् वर्तते। अनुसन्धान निकायस्य प्रहरीपरीक्षक संजय सिंह थापा निगृहितानाम् जनानाम् मध्ये विनिता तामाङ पञ्चाशतः सहस्राणाम् रूप्यकाणाम् न्यासवित्तेन मोचितास्तीति अवोचत। गृह मन्त्रालयस्य सचिव विनोद प्रकाश सिंह नागरिकाणाम् दैनन्दिन्या सह प्रत्यक्ष योजित सेवानाम् प्रवाहे सर्वविध प्रयत्नान् विधातुम् कर्मचारिणः निर्दिशति। सुर्खेत जनपद प्रशासन कार्यालयस्य नवनिर्मितम् प्राशासनिक भवनम् ह्य उद्घाटयन् निरीक्षमाणश्च गृह सचिव सिंह नागरिकेभ्यः सुशासनस्य प्रत्यानुभावनत्वेन सरलरीत्या न्यून व्यय साध्याम् सर्वसुलभाम् च सेवाम् प्रवाहयितुम् निर्दिष्टवान्। शतद्वयम् कोरिया देशीया बौद्ध भिक्षवः तीर्थयात्रिणश्च पदयात्रया ह्यो लुम्बिनीम् सम्प्राप्ताः सन्ति। भारतस्य कुशीनगर सारनाथ बोधगया स्थलानि परिभ्रम्य बुद्ध जन्मस्थलम् लुम्बिनीम् सम्प्राप्ताः तीर्थयात्रिणः लुम्बिनी विकास कोषेण समारोहम् आयोज्य अभ्यर्थिताः वर्तन्ते। इति समाचाराः।